नमः सर्वेभ्यः। अद्य कोविद वर्गस्य द्वाविंशः पाठः, जून् मासस्य ऊनत्रिंशः दिनाङ्कः। गुरुरेव गतिर्गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे। न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो। वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये, जगतः पितरौ वन्दे पार्वती परमेश्वरौ। रघुवंशस्य द्वितीयसर्गः, द्वितीयसर्गस्य चिताः श्लोकाः अस्माभिः अधीयमानाः सन्ति। अथ प्रजानामधिपः प्रभाते, जाया प्रतिग्राहितगन्धमाल्यां, वनाय पीतप्रतिबद्धवत्सां, यशोधनो धेनुमृषेर्मुमोच इति प्रथमः श्लोकः। दिलीपः सुदक्षिणा च वसिष्ठाश्रमम् आगत्य तत्र सन्तानप्राप्त्यर्थं वसिष्ठस्य होमधेनोः नन्दिन्याः सेवां कर्तुम् आरभेते। प्रातःकाले राजा दिलीपः ऋषेः धेनुं नन्दिनीं वनाय गन्तुं मुमोच। कीदृशी आसीत् सा? पीतप्रतिबद्धवत्सा। पुनश्च जाया प्रतिग्राहितगन्धमाल्या, सुदक्षिणया पूजिता, वत्सः क्षीरं पीत्वा प्रतिबद्धः, तादृशीं धेनुं दिलीपः वनं गन्तुं मुक्तवान्। तस्याः खुरन्यासपवित्रपांसुम् अपांसुलानान्धुरिकीर्तनीया, मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मृतिरन्वगच्छत्। सुदक्षिणा अपि तस्याः धेन्वाः पवित्रं मार्गं, तस्याः पादस्थापनेन पवित्रं मार्गम् अनुसृतवती। का? पतिव्रतानाम् अग्रगण्या सुदक्षिणा। कथं? श्रुतेः अर्थं स्मृतिः इव, यथा धर्मशास्त्रग्रन्थाः वेदवाक्यार्थमेव अनुसरन्ति, एवं सुदक्षिणा नन्दिन्याः मार्गम् अनुसृतवती। किन्तु दिलीपः ताम् आश्रमं प्रति प्रेषितवान्, स्वस्य अनुयायिवर्गमपि प्रेषितवान्, एकाकी भूत्वा नन्दिन्याः सेवां कर्तुं वनं गतवान्। आस्वादवद्भिः कवलैस्तृणानां, कण्डूयनैर्दंशनिवारणैश्च, अव्याहतैः स्वैरगतैः स तस्याः सम्राट् समाराधनतत्परोऽभूत्। तत्र कथं नन्दिन्याः सेवां कृतवान् इति गतवर्गे दृष्टवन्तः। बहु रुचिकराणि तृणानि तस्यै खादितुं दत्तवान्, कण्डूयनं कृतवान्, वनमक्षिकाणां कीटानां निवारणं कृतवान्। सा यथा इच्छति तथा गन्तुं ताम् अनुमतवान्। एवं सः सम्राट् सार्वभौमः दिलीपः नन्दिन्याः सेवानिरतः आसीत् इत्येतावत् गतसप्ताहे दृष्टवन्तः। अग्रे पुनः केचन श्लोकाः मध्ये न सन्ति कोविदपाठ्यक्रमे, षष्ठश्लोकादारभ्य नवमश्लोकपर्यन्तं नास्ति। तत्र किं भवति इति संक्षेपेण किञ्चित् जानीमः, फार् द सेक् आफ् कण्टिन्युटि। पुनः सेवां कथं कृतवान् इति अग्रिमः श्लोकः वस्तुतः बहु सम्यगस्ति। स्थितस्थिताम् उच्चलितः प्रयातां निषेदुषीम् आसनबन्धधीरः, सा यद्यत् करोति, यदा तिष्ठति तदा तिष्ठति, यदा चलति तदा चलति, सा उपविशति चेत् एषः उपविशति, यदा सा जलं पिबति तदा एव एषः अपि जलं पिबति। स्वस्य कार्यार्थं सः तां न कर्षति, सा यद्यत् करोति ताम् अनुसृत्य एव स्वस्य सर्वं कार्यं करोति। ततः वने सञ्चरतः दिलीपस्य वर्णनं बहु सम्यक् करोति कालिदासः। तत्र सः, तस्य वेषः नासीत्, राजवेषः नासीत्, सः स्वस्य किरीटम् आभरणादिकं सर्वमपि त्यक्तवान् आसीत्, तथापि तस्य चक्रवर्तिनः शोभा सम्यक् दृश्यते स्म। अन्तर्मदावस्थ इव द्विपेन्द्रः, कश्चित् गजराजः तस्य मदोदकं बहिः न दृश्यते चेदपि तत्तेजः दट् लस्टर् आर् दट् कान्ति आफ् बीङ्ग् अ किङ्ग् द तेजस् वास् देर् इवन् दो देर् वास् नो एक्स्टर्नल् सैन्स् आफ् हिस् किङ्ग्शिप् इति यथा महाराजः कश्चित् नगरे किं करोति सज्जनान् पालयति दुष्टान् दण्डयति एवमेव तत्रापि वन्यान् विनेष्यन्निव दुष्टसत्त्वान् तत्रापि सः तादृशमेव कार्यं कृतवान् इति वर्णयति ततः पार्श्वद्रुमाणां जयघोषः सः यदा मार्गे गच्छति यदा कश्चित् राजा मार्गे गच्छति तत्र उभयथापि जयघोषं कुर्वन्ति So it is common practice that when a king enters or leaves, so there is Jayaghosha which is done on the sides of the road. Here there is nobody, he is in a forest. Tathapi Parshvadrumaha Jayaghosham Kritavantaha. It was as if the trees themselves were doing the Jayaghosha. How? Vayasam Viravaihi, Vayamsi Nama Pakshinaha. पक्षिणां कलरवः एव जयघोषः इति कवेः कल्पना सो द कवि सेज् दट् थ्रू द वेरियस् नाय्सस् आफ् द बर्ड्स् इट् वास् एस् इफ् द ट्रीस् आन् ईदर् सैड् आफ् द रोड् आर् द फारेस्ट् ट्रेल् वेर् पर्फार्मिङ्ग् द जयघोष फार् द किङ्ग् सः पूर्वतनश्लोकः अद्यतनश्लोकः अपि तादृशः एव इट् इस् संथिङ्ग् सिमिलर् टु दट् मरुत्प्रयुक्ताश्च मरुत्सखाभं तमर्च्यमारादभिवर्तमानम् अवाकिरन् बाललताः प्रसूनैः आचारलाजैरिव पौरकन्याः कोऽपि पदच्छेदं कर्तुमिच्छति सुधा भगिनी
मयुत् प्रयुक्ताः
एकं क्षणम् अहम् आदौ श्लोकं पाठयामि श्लोकं वदतु अनन्तरं पदच्छेदं कुर्मः
मरुत्प्रयुक्ताश्च
मरुत्सखाभं
तमर्च्यमारात्
अभिवर्तमानम् अवाकिरन्
बाललताः प्रसूनैः
आचारलाजैरिव पौरकन्याः पुनः मरुत्प्रयुक्ताश्च मरुत्सखाभम् तमर्च्यमारादभिवर्तमानम् अवाकिरन् बाललताः प्रसूनैः आचारलाजैरिव पौरकन्याः पूर्णं पठतु एकवारं
मरुत्प्रयुक्ताश्च मरुत्सखाभं तमर्च्यमारादिववर्तमानम् अभिवर्तमानम् अवाकिरन् बाललताः प्रसूनैः आचारलाजैरिव पौरकन्याः
सम्यक् इदानीं परच्छेदं करोतु
मयुत् प्रकाश्च दट् इस् मयुत् प्रयुक्ताश्च मरुत् प्रयुक्ताश्च दट् इस् मरुत् प्रयुक्ताः च्युत्वसन्ति मरुत् सखाभं तमर्च्य तदस्तम् अर्च्य
अर्च्यम्
आरात् अभिवर्तमानम् आरात् प्लस् अभिवर्तमानम् दट् इस् जष्ट्वसन्धि अवाकिरन् प्लस् बाललताः प्रसूनैः प्लस् आचारलाजैः अत्र विसर्गसन्धिश्च रेफादेशो भवति देन् आचारलाजैः इव अगेन् विसर्गसन्धि रेफा पौरकन्याः
पौरकन्याः सम्यक् उत्तमम् मरुत् प्रयुक्ताः च मरुत् सख आभम् एकमेव पदं समस्तपदं मरुत् सख आभं तम् अर्च्यम् आरात् अभिवर्तमानम् अवाकिरन् बाललताः प्रसूनैः आचारलाजैः इव पौरकन्याः इति पदच्छेदः तत्र मरुत्प्रयुक्ताः च विसर्गस्य सकारः तस्य श्चुत्वं भवति मरुत् सख आभं सखाभं सवर्णदीर्घसन्धिः आरात् अभिवर्तमानं जष्ट्वसन्धिः आरादभिवर्तमानं बाललताः प्रसूनैः अत्र लेखने नास्ति किन्तु उच्चारणसमये बाललताः प्रसूनैः अर्धविसर्गः उपध्मानीयः भवति प्रसूनैः आचारलाजैः आचारलाजैः इव उभयत्रापि विसर्गस्य रेफः तावदेव पौरकन्याः आल् दीस् आर् द सन्धीस् पुनः श्लोकं पठामः मरुत्प्रयुक्ताश्च मरुत्सखाभं तमर्च्यमारादभिवर्तमानम् अवाकिरन् बाललताः प्रसूनैः आचारलाजैरिव पौरकन्याः कः अर्थः श्लोकस्य इति चेत् मया उक्तं पूर्वं किमुक्तं राजा यदा आगच्छति तदा जयघोषः भवति अत्र वने पक्षिणां नादः एव जयघोषः एवमेव यदा कश्चित् राजा आगच्छति तदा तत्र वनिताः अथवा पौरकन्याः नगरस्य स्त्रियः आचारलाजान् विकिरन्ति लाजः इत्यस्ति अरळु इति कन्नडभाषायां वदन्ति इट् इस् भृष्टधान्यम् इति कथ्यते तमिळ्भाषायामपि अरळ् पुरि इति भवति इट्स् where it's like a corn, you know, the popcorn. So the rice which is roasted, okay, it rice or other grains, it could be any grain, but usually that is the one. So that is called laja. Vivahe api laja homaha iti bhavati. So that is considered auspicious. It is used in auspicious occasions. Bhoktum tu vratadishu upayujyate. Evameva etadrisheshu for you know, like today, probably they scatter rose petals if some VIP is coming. Okay, so that is the earlier version of that is the laja, achara lajaha. So that is spread, the puffed rice, not the aval, but it is that. Okay, so that was a sampradaya. Whenever there is a king or a special guest coming, so they scatter this laja. Okay. Now, vane kim bhavati iti chet, bala lataha prasunaihi avakiran. Tatra lataha, creepers. So, the creepers of the forest, they scattered flowers over diripa. Pushpani vikirna vantaha. यथा पौरकन्याः आचारलाजान् विकिरन्ति एवं बाललताः प्रसूनैः अवाकिरन् इति दट् इस् द सेकेण्ड् हाफ् कीदृशः किमर्थम् इत्यपि कविः एकं कारणं वदति. मरुत्सखाभं, सः मरुत्सखा, वायोः सखा अग्निः इति कथ्यते. वायुः अग्निः उभयोः परस्परं सख्यमस्ति. बिकास् विण्ड् हेल्प्स् द फयर् टु फ्लेर् अप्, ओके, एस्पेशली वेन् देर् इस् अ फारेस्ट् फयर्. With the help of the wind, the fire burns brighter. So, Agni is referred to as Marutsakha. Marutsakhabham, he who resembled the friend of Marut, Vayu, that is Agni. Agni sadrisham tejaha dilipe asit, ataha marutprayuktaha. Actually, what happens? There is wind and therefore flowers fall from the creepers. The poet is imagining it as if the Marut, Vayuhu, Swasya Mitrasya Swagatartham Pushpani Patayati. It is as if the Vayudeva, since his friend, that is Agni, Dilipa is similar to Agni. So when a friend comes home, Vayu is welcoming him by making the flowers fall from the creepers. Sa Kavehe Kalpana. मरुत् प्रयुक्ताः बाललताः, वायुना प्रेरिताः लताः प्रसूनैः अवाकिरन्, पुष्पवृष्टिं कृतवन्तः दिलीपस्य उपरि, यथा पौरकन्याः आचारलाजैः कुर्युः. कीदृशः सः दिलीपः? मरुत्सखाभम्, अग्निसदृशं तेजः तस्य आसीत्. अर्च्यं, पूजनीयः सः दिलीपः. यस्य कस्यापि एतादृशं स्वागतं न क्रियते, सः पूजनीयः. आरात् अभिवर्तमानः, बहु समीपम् आगतः. तादृशस्य दिलीपस्य स्वागतं कृतवन्तः इति. सेवायाः, सोरि, देर् इस् यथा नगरे स्त्रियः राज्ञः स्वागतार्थं लाजान् विकिरन्ति. सो जस्ट् लैक् इन् द सिटि, द विमेन् वुड् स्केटर् द लाजस् फार् वेल्कमिङ्ग् द किङ्ग्. एवं वने बाललताः स्वसमीपम् आगतस्य दिलीपस्य उपरि पुष्पाणि विकीर्णवत्यः, वायुना प्रेरिताः इत्यर्थः. एषः श्लोकस्य सामान्यार्थः. इदानीम् अग्रे तस्य वाक्यस्य विश्लेषणं कुर्मः. का विभक्तिः इत्यादि. एक्स्क्यूज् मी जस्ट् वन् मोमेण्ट्. ये कर्तुमिच्छन्ति हस्तमुन्नयन्तु. To identify which is the Kriyapada and what are the Vibhaktis. Mahadevan, Mahade.
Namaste. Avakiran iti Kriyapadam.
Kriyapadam Avakiran.
Avakiran. Saha Avakiran. Balalataha Avakiran.
We'll first see only the vibhaktis. Prathama vibhaktau kim kim asti.
Oh, balalataha, marut prayuktaha, paurakanyaha,
iti prathama vibhakti. Marut prayuktaha, balalataha, paurakanyaha. Dvitiya vibhakti. अभिवर्तमानम्. सम्यक्. मरुत्सखाभं, तम्, अर्च्यम् अभिवर्तमानम् इति द्वितीया विभक्तिः. तृतीया.
प्रसूनैः
Mm.
आचार लाजैः.
प्रसूनैः आचारलाजैः इति तृतीया. ततः अव्ययानि
आरात्
आरात्
इव
च च आरात् इव इति अव्ययम्. सो यदा एवं विभक्तिक्रमेण स्थापयामः बहु सरलं भवति. सो मरुत् प्रयुक्ताः बाललताः अवाकिरन् कं मरुत्सखाभं तम् अर्च्यम् अभिवर्तमानम् अवाकिरन् कैः प्रसूनैः यथा पौरकन्याः आचारलाजैः इति. सो दिस् एक्ससैज् हेल्प्स् इन् द आकाङ्क्षाक्रम. इदानीम् आकाङ्क्षाक्रमेण अन्वयं कुर्मः. वदतु महोदय.
पुनः काः मरुत्प्रयुक्ताः बाललताः?
कीदृश्यः बाललताः?
मरुत्प्रयुक्ताः बाललताः. कीदृशं तम् अर्च्यं तम् अवाकिरन् पुनः कीदृशं मरुत्सखाभं तम् अवाकिरन् मरुत्सखाभम् अर्च्यं तम् अवाकिरन् पुनः कीदृशम् अभिवर्तमानम् अर्च्यं मरुत्सखाभं तम् अवाकिरन्
कुत्र अभिवर्तमानम्
कुत्र अभिवर्तमानम् आरात् अभिवर्तमानं
सम्यक्
अवाकिरन् कैः अवाकिरन् प्रसूनैः अवाकिरन्
सम्यक्
उपमा आचारलाजैः पौरकन्याः आचारलाजैः
किमेव अवाकिरन्
किमेव अवाकिरन् आचार पौरकन्याः आचारजालैः इव
अवाकिरन् सम्यक् उत्तमम्. अवाकिरन् इति क्रियापदम् अवर्षन् इत्यर्थः. टु शवर् अपान् टु स्केटर् अपान् इत्यर्थः तस्य क्रियापदस्य. अवाकिरन् अवर्षन् काः अवाकिरन् बाललताः. लता वल्ली शब्दः क्रीपर् इत्यर्थे भवति. बाललताः यङ्ग् क्रीपर्स् इत्यर्थः. सो बाललताः सामान्यतः एतादृश कार्यक्रमार्थं बालाः लघुबालिकाः अथवा युवतयः एव कुर्वन्ति इत्यतः सः तथा वदति. बाललताः वल्ल्यः वल्ली वल्ल्यौ वल्ल्यः. कीदृश्यः बाललताः वस्तुतः कीदृश्यः स्त्रीलिङ्गे वक्तव्यम्. मरुत्प्रयुक्ताः मरुता वायुना प्रेरिताः वल्ल्यः अवर्षन्. सो देवर् मेड् टु डू सो बै द विण्ड्. मरुत्प्रयुक्ताः एस् टोल्ड् बै विण्ड् आर् देवर् कास्ड् बै विण्ड्. सो वायोः आज्ञानुगुणं ताः तथा कृतवन्त्यः इति कवेः कल्पना. सो वायुना प्रेरिताः वल्ल्यः अवर्षन्. कम् अवाकिरन् तं दिलीपम्. द कर्मपद हियर् फार् दिस् इस् नाट् वाट् डिड् दे शवर्. सो दे शवर्ड् दिलीप वित् फ्लार्स्. सो तत्र यस्य उपरि तद्वर्षणं क्रियते तदेव कर्मपदम्. किम् उप तत्र वर्षणस्य साधनं भवति पुष्पाणि. अतः कम अवाकिरन तम दिलीपम, कीदृशं तम मरुत्सखाभम वायुमित्रेण अग्निना सदृशम. सो दे शवर्ड दिलीप हू रिसेंबल्ड अग्नि द फ्रेंड ऑफ वायु. पुनः कीदृशं अर्च्यं पूजनीयं, हू इज वर्दी ऑफ बीइंग वर्शिप्ड वेनरेबल इत्यर्थः. अर्च्यं अर्चितुं योग्यं, अर्च्यं मरुत्सखाभं दिलीपं. पुनः कीदृशं अभिवर्तमानं विद्यमानं, कुत्र आरात. यू कैन ईदर टेक इट एज वन क्वेश्चन एंड से आरात अभिवर्तमानं, समीपे विद्यमानं, अथवा कीदृशं अभिवर्तमानं, कुत्र अभिवर्तमानं, आरात समीपे इत्यपि वक्तुं शक्यते. बोथ ऑफ इट इज ओके. सो ही हैड कम क्लोज. ओके, सो व्हेन दे ही वाज पासिंग वेरी क्लोज टू द क्रीपर्स, तदा एव ताः पुष्पवृष्टिं कृतवन्तः कृतवत्यः इत्यर्थः. सो अत्र अर्च्यं मरुत्सखाभम् अभिवर्तमानम् इति त्रयमपि तम् इत्यस्य विशेषणं भवति. आरात् अभिवर्तमानम्, अर्च्यं मरुत्सखाभं तम्, वायुना प्रेरिताः वल्ल्यः अवाकिरन् इति वाक्यम्. आरात् इति पदस्य विषये अग्रे जानीमः. आरात् इति अव्ययम्. ओके, आरात् दूरसमीपयोः इति अमरकोशे अस्ति. सो आरात् इस् एन् अव्यय विच् केन् मीन् बोत् नियर् एण्ड् फार्. इट् इस् लैक् द कल् इन् हिन्दी. ओके, बोत् यस्टर्डे एण्ड् टुमारो. प्रसङ्गशः तत् दूरम् इत्यर्थः वा समीपम् इत्यर्थः वा इति ज्ञायते. अत्र तु समीपे इति अर्थः. अग्रे किमस्ति, कैः अवाकिरन्, प्रसूनैः, प्रसूनं पुष्पं कुसुमम् इत्यर्थः. कुसुमैः पुष्पैः अवर्षन्. किमिव, लैक् वाट्, पौरकन्याः आचारलाजैः इव. पौरकन्याः नागरिकवनिताः, सो विमेन् आफ् द सिटी. आचारलाजैः, सो साम्प्रदायिकैः भ्रष्टधान्यैः, द ट्रेडिशनल् लाज. सो बै दट् इव, पौरकन्याः आचारलाजैः इव ताः बाललताः अवर्षन् इति वाक्यम्. वाक्यस्य पूर्णम् अन्वयः कथम्? मरुत्प्रयुक्ताः बाललताः आरात् अभिवर्तमानम्, अर्च्यम् मरुत्सखाभं तम्, प्रसूनैः अवाकिरन्, आचारलाजैः पौरकन्याः इव इति वाक्यम्. कः अर्थः? यथा नागरिकवनिताः साम्प्रदायिकान् भ्रष्टधान्यान् विकीर्य राजादीनां स्वागतं कुर्वन्ति. सो दट् इस् द ट्रेडिशन्. सो वेनेवर् सम् venerable guest comes to the city, he is greeted with the showering of laja. Tatha vane vayuna preritaha valyaha vayumitrena agnina tulyam pujaniyam tam dilipam kusumaihi avarshan. So the creepers showered flowers on dilipa, who was worthy of worshipping, who was equal to fire, the friend of Vayu, and who was very close. Arad abhivartamanam. So Vayuhu agatam mitram agnim latamukhena upachachara. It was as if Vayu was greeting his friend Agni through these creepers, through the pushpavrishti by these creepers. Iti kavehe bhavaha. Kopi prashnahar अर्थस्य श्लोकस्य अवगमने. मरुत् प्रयुक्ताश्च मरुत् सखाभम् तमर्च्यमारादभिवर्तमानम् अवाकिरन् बाललताः प्रसूनैः आचारलाजैरिव पौरकन्याः. अग्रे व्याकरणांशान् पश्यामः. प्रत्येकं पदस्य ये वक्तुमिच्छन्ति कृपया हस्तमुन्नयन्तु. प्रथमं पदमस्ति मरुत्प्रयुक्ताः. महालक्ष्मी भगिनी.
स्त्रीलिङ्गं प्रथमा विभक्ति बहुवचनं
आकारान्तः स्त्रीलिङ्गः बिकास् इट् इस् अ विशेषण टु लताः. अतः आकारान्तः स्त्रीलिङ्गः प्रथमा विभक्तौ बहुवचनं. समासः सम्यक्. मरुता प्रयुक्ताः मरुत् प्रयुक्ताः. कः समासः? तृतीया तत्पुरुषः. मरुता प्रयुक्ताः एन्करेज्ड् आर् मेड् टु डू सो बै द विण्ड्. सो तत्र कर्तृपदं मरुत् इति क्तप्रत्ययान्तः शब्दः. अतः तृतीया तत्पुरुषः मरुता प्रयुक्ताः मरुत् प्रयुक्ताः इति. मरुत् इति वायोः पर्यायपदम्. समीर मारुत मरुत् जगत्प्राणसमीरणाः इति अमरकोशे अस्ति. मारुत इति अकारान्तशब्दः अपि अस्ति. मरुत् इति तकारान्तः शब्दः अपि अस्ति. वायुः इत्यर्थः. मरुत् प्रयुक्ताः. अग्रिमं मरुत्सखाभम्.
मरुत्सखाभम् अकारान्त पुल्लिङ्ग द्वितीया विभक्ति एकवचनम्.
अकारान्तः पुल्लिङ्गः मरुत्सखाभ इति शब्दः द्वितीया विभक्तिः एकवचनम्. समासः
मरुतस्य सखाभं मरुतः सखाभम्.
वाट् इस् सो देर् आर् त्री वर्ड्स् सो यु टु टेक् टु बै टु. सो द फस्ट् टु वर्ड्स्
मरुतः
कः अर्थः?
विद् द हेल्प् आफ्
न न मरुत् सख इत्यस्य कः अर्थः?
विद् द हेल्प् आफ् विण्ड्.
No, no. That is Marutprayuktaah is with the help of wind. Marutsakhabham means he who resembles the friend of Marut. Abha is resembling. So with his tejas, he who resembles the friend of wind, Vayu, ityarthah. So Marut is wind, Sakha is friend, Abha is he who possesses the Kanti, ityarthah. Ha. इदानीं मरुत् सख कथं समासः?
मरुतः
सखा. सम्यक्. मरुतः सखा मरुत् सखः. इट् इस् अ स्पेशल् केस्. वस्तुतः सखि इति इकारान्तः शब्दः, बट् इन् अ तत्पुरुषसमास इट् बिकम्स् अकारान्त. लैक् राजन् शब्द. द राजन् शब्द वेन् इट् इस् इन् अ समास वि से महाराजः, not maharaja, because in a samasa the rajan shabda becomes akaranta. Similarly there is a rule where the sakhi iti shabdah, but in a samasa it becomes akaranta. So marutah sakha marut sakhah. Agre. चिन्ता नास्ति. तत्र किञ्चित् क्लेशः अपि अस्ति. तत्र मरुतः सखा मरुत्सखः इत्यत्र षष्ठी तत्पुरुषः. अग्रे आभ इत्यस्य विग्रहे द्वेधा विग्रहः वक्तुं शक्यते. एकं तु आभाति इति आभः, he who shines is आभ. ओके, तत्र उपपदसमासः आ इत्यनेन सह भ इत्यस्य उपपदसमासः. मरुत्सखः इव आभः, लैक् वि से कुसुमम् इव कोमलम्, कुसुम कोमलम्. सो अग्निः इव दीप्तः इत्यर्थः. हि हू इस् शैनिङ्ग् लैक् अग्नि, तत्र मरुत्सखः इति उपमानम्, आभः इति साधारणधर्मः. अतः उपमानपूर्वपदकर्मधारयः मरुत्सखः इव आभः, मरुत्सखाभः तम् इति समासः वक्तुं शक्यते. सो दिस् शुड् बी द समास अकार्डिङ्ग् टु मल्लिनाथ, बिकास् हि सेस् आभाति इति आभः इति व्युत्पत्तिं प्रदर्शयति. देर् इस् आल्सो अनदर् वे आफ् स्प्लिटिङ्ग् द समास. मरुत्सखस्य आभा इव आभा यस्य सः इति अस्माभिः अग्रिमसप्ताहे अयं समासः ज्ञास्यते. गजस्य आननम् इव आननं यस्य सः गजाननः इति वदामः. एवमेव मरुत्सखस्य आभा इव आभा, आभा इत्युक्ते कान्तिः, अग्नेः कान्तिः इव कान्तिः यस्य सः, सः मरुत्सखाभः तम् इति उपमानपूर्वपद बहुव्रीहिः अपि वक्तुं शक्यते. सो यु केन् स्प्लिट् द मरुत्सखाभ इन् टू वेस्. उभयथापि मरुतः सखा मरुत्सखः इत्यत्र षष्ठी तत्पुरुषः, ततः उपमानपूर्वपदकर्मधारयः वा उपमानपूर्वपद बहुव्रीहिः वा वक्तुं शक्यते. अर्थः समानः, मीनिङ्ग् इस् द सेम्. द विग्रह केन् बि गिवन् इन् बोत् वेस्. अग्रिमम् अर्च्यम् इति पदम्, अग्रिमं पदम् महादेवन् महोदय, महादेवन् डि अन्म्यूट् करणीयम्.
अर्च्यम् अर्च्यम् अर्च्य शब्दः पुल्लिङ्ग अकारान्त पुल्लिङ्गः अर्च्यम् अस्ति, अतः द्वितीय विभक्ति अर्च्यम् एकवचनम् एकवचनम्
सम्यक्. अकारान्तः पुल्लिङ्गः द्वितीया विभक्तौ एकवचनम् अर्च्यम् इति.
अर्च्यम्
अर्च्यः इत्युक्ते
अर्च्यः
अर्चितुम् अर्हः, he who deserves to be worshipped इत्यर्थे अर्चधातोः ण्यत् इति प्रत्ययः भवति, कृदन्त शब्दः. ओके, सो अर्च्य मीन्स् he who is worthy of being worshipped इत्यर्थः. अग्रे आरात्
आरात् आरात् तस्य अर्थः
अव्ययम् आरात् इति
नियर् नियर् अस्ति किल नियर् बै आरात् नियर् बै, अतः तत् शब्दम् अव्ययम्
भवति. आरात् दूरसमीपयोः इति अमरकोशे अस्ति, समीपे इत्यर्थः अत्र भवति. इट् इस् एन् अव्ययम्
अव्ययम्.
अभिवर्तमानम्
अभिवर्तमानम् अभिवर्तमानम् सकारान्त अभिवर्त नपुंसकलिङ्गशब्द अभिवर्तमानं
कस्य विशेषणम्
अभिवर्तमानं अतः पुल्लिङ्गशब्दः अभिवर्तमान पुल्लिङ्गशब्दः द्वितीया विभक्ति एकवचनम्
सम्यक्
किल
अकारान्तः पुल्लिङ्गः
द्वितीयः एकवचनम्
सम्यक् तत्र अभिवर्तमानम् इत्यत्र अभि उपसर्गः वृत् धातुः वर्तते वर्तेते वर्तन्ते इति वृत् धातोः शानच् प्रत्ययः भवति अभिवर्तमान शिक्षा वर्गेषु वयं शानच् प्रत्ययस्य विषये ज्ञातवन्तः शानच् इति प्रत्ययः कृदन्तः शब्दः अग्रे अवाकिरन् there are some people who have raised their hands but I don't see an audio icon somehow not connected to audio Chandrasekharan mahodaya Padmanabhan mahodaya sometimes maybe if you just re-log in it may resolve or please check your microphones if the audio is connected because I don't see a microphone to unmute अन्य केऽपि वक्तुम् इच्छन्ति राधा भगिनी
अवाकिरन्
उपसर्गपूर्वकः
बहुवचनं
बहुवचनं सम्यक् अव उपसर्गः कृ धातुः कृ विक्षेपे इति टु स्प्रेड् टु स्क्याटर् इत्यर्थः तस्य परस्मैपदे लङ्लकारे प्रथमपुरुषे बहुवचनम् अव अकिरन् अवाकिरन् अकिरत् अकिरताम् अकिरन् इति रूपाणि बहुवचने अवाकिरन् इति भवति किरति किरतः किरन्ति इति लट्लकारे रूपम् अकिरत् अकिरताम् अकिरन् इति लङ्लकारे रूपम् कृ विक्षेपे इति धातुः सम्यक् धन्यवादाः अग्रे बाललताः प्रिया भगिनि
आकारान्त स्त्रीलिङ्गः बहुवचनं प्रथमाविभक्तिः बहुवचनं
आकारान्तस्त्रीलिङ्गः प्रथमाविभक्तौ बहुवचनं बाललताः समासः यङ्ग् क्रीपर्स्
विशेषणपूर्वपद कर्मधारय
सत्यं विग्रहः
विग्रहः बालाः इव लताः
बालाः लताः
बाल
इण्डिकेट्स् जस्ट् यङ्ग् इत्येव अर्थः सो बालाः लताः बाललताः विशेषणपूर्वपदकर्मधारयः सम्यक् अग्रे प्रसूनैः
अकारान्त नपुंसकलिङ्ग तृतीयाविभक्तिः बहुवचनं
हा अकारान्तः नपुंसकलिङ्गः प्रसूनम् इत्यर्थः तृतीयाविभक्तौ बहुवचनं सम्यक् स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं समम् इति अमरकोशे स्त्रीलिङ्गे सुमनस् इति शब्दः अस्ति सुमनाः सुमनसौ सुमनसः इति पुष्पम् इत्येव अर्थः नपुंसकलिङ्गे एतत् सर्वं पुष्पं प्रसूनं कुसुमम् इति सर्वमपि नपुंसकलिङ्गे भवति अग्रे अन्ये केऽपि वक्तुमिच्छन्ति चन्द्रशेखरन् महोदय
आचारलाजैः आचारलाज इति पुल्लिङ्गः
अकारान्तः पुल्लिङ्गः तृतीयाविभक्तिः बहुवचनम् समासः
आचारलाज आचारः लाजः इति विशेषणयुगपदौ
आचारः इट् इस् नाट् अ डिरेक्ट् विशेषण सो फार् आचार फार् ट्रेडिशन् लाजस् आर् रिलेटेड् टु ट्रेडिशन् बेसिकलि आचारसम्बद्धाः इत्यर्थः सामान्यं षष्ठी तत्पुरुषः आचारस्य लाजाः आचारलाजाः आचारसम्बद्धाः इत्यर्थः आचारार्थाः इति दीयते षष्ठी तत्पुरुषसमासः आचारस्य लाजाः आचारलाजाः तैः इति इव इति अव्ययम् अन्तिमं पदं पौरकन्याः
पौरकन्याः आकारान्तस्त्रीलिङ्ग पदं प्रथम बहुवचनम्
आकारान्तः स्त्रीलिङ्गः प्रथमाविभक्तौ बहुवचनं समासः
पौराः कन्याः
पौराः कन्याः पौरकन्याः पुरे भवाः पौराः इन् द सिटि रिलेटेड् टु दोस् हु आर् इन् द सिटि आर् काल्ड् पौर पुर इत्यस्मात् अण् इति तद्धितप्रत्ययः पौराः कन्याः पौरकन्याः विशेषणपूर्वपदकर्मधारे समासः धन्यवादाः एवञ्च सर्वेषामपि पदानां व्याकरणांशाः ज्ञाताः केन् इट् नाट् बि चतुर्थी आचाराय लाजाः चतुर्थीसमासे बहुत्र सः क्लेशः सूत्रं नास्ति सो देर् इस् नो सूत्र विच् केन् कम् विच् केन् हेल्प् द आचार इन् चतुर्थी विभक्ति टु कम्बैन् वित् लाज ओके ऐ थिङ्क् वि हेव् डिस्कस्ड् इट् लैक् से गुरुदक्षिणा वेर् इट् इस् लैक् द समास इस् षष्ठी तत्पुरुष इवन् दो द सेन्स् आफ् चतुर्थी इस् देर् गुरोः दक्षिणा एवमत्रापि आचारस्य लाजाः इत्येव समासः चतुर्थीसमासं कर्तुं सूत्रं नास्ति इत्यतः अन्तिमः अंशः अत्र अलङ्कारः कः अलङ्कारः कोऽपि विवरणं कर्तुम् इच्छति कथम् अलङ्कारः सः इति सुजाता भगिनी उपमालङ्कारः सम्यक् किम् उपमेयः
उपमेयः बाललताः प्रसूनैः आल्सो बाललता इस् कम्पेर्ड् टु पौरकन्याः प्रसूनैः इस् कम्पेर्ड् टु आचार लाजाः लाजैः इव इति
उपमावाचकः साधारणधर्मः
अवाकिरन्
अवाकिरन् सत्यम् अवाकिरन् इति अवकरणं सो स्क्याटरिङ्ग् इति साधारणधर्मः सम्यक् अत्र पूर्णोपमा अलङ्कारः अस्ति बाललताः इति उपमेयः पौरकन्याः उपमानम् एवमेव प्रसूनानि उपमेयः आचारलाजाः इति उपमानम् इव इति उपमावाचकशब्दः अवकरणं सो स्क्याटरिङ्ग् ईस् द साधारणधर्म पूर्णोपमा अलङ्कारः छन्दः तु उपजातिः एस् यूजुवल् सो लघु म इत्यत्र लघुः त इति लघुः अ इति लघुः अतः आदौ पादत्रये उपेन्द्रवज्र अन्ते तु आचारलाजैः आ इति गुरु अस्ति अतः इन्द्रवज्र उपेन्द्रवज्र इन्द्रवज्र इत्यनयोः मिश्रणम् अतः उपजातिः अलङ्कारः ओके अन्यः प्रश्नः मरुत्सखाभः इत्यत्रापि उपमालङ्कारः सत्यं तत्र समासः एव उपमानपूर्वपद कर्मधारयः अथवा बहुव्रीहिः अतः तत्र मरुत्सखा इति उपमानं कान्तिः साधारणधर्मः तम् इति उपमेयः अस्ति उपमावाचकः शब्दः नास्ति समासेन एव बोध्यते इत्यतः लुप्तोपमा इति वक्तुं शक्यते मरुत्सखाभः इत्यत्र उपमालङ्कारः अस्ति सो दट् इस् अ स्मालर् उपमालङ्कार विच् इस् आल्सो प्रेसेण्ट् च इति अव्ययस्य डस् नाट् सीम् टु हाव् अ सिग्निफिकेन्स् इट् इस् अ कण्टिन्युयेशन् फ्रम् द प्रीवियस् वन् as I said the previous verse also talks about how the trees did jayaghosha through the this one so the poet is continuing with the same thing and the creepers also did this iti visheshah arthah nasti kintu tatah eva anuvartate ityatah chakarah if we read in the proper order of verses the chakara will fit in there okay So it is not just a space filler, Padapuranam na, Purvatana Shlokena saha sambandhan kalpayati, because it's a very similar description. Anye kepi prashna ha santiva? Adhyavayam, Raghuvamshasya, Dvitiya Sarge, Dashamam Shlokam Adhitavantaha, Marut Prayuktashcha Marut Sakhabham, तमर्च्यमारादभिवर्तमानम् अवाकिरन् बाललताः प्रसूनैः आचारलाजैरिव पौरकन्याः अन्यरपि एकं स्मर्तव्यं मया पाठनसमयेऽपि पुनः पुनः श्लोकः पठ्यते द इण्टेन्शन् इस् वेन् वि आर् स्टडीङ्ग् इट् इन् दिस् डीटेल् द श्लोक शुड् बि मेमोरैज्ड् बै द टैम् वि फिनिश् द स्टडीङ्ग् दट् इस् वन् आफ् द इण्टेन्शन्स् बिकास् such words of great poets especially kalidasasya vachanani if you memorize them and you keep contemplating them later on so it makes a lot of at appropriate times you remember it gives a whole different meaning mahakavinam vachanani ekavaram samanyatah arthah gnyayate kintu yada vayam punah purah स्मरणं कुर्मः तदा विशिष्टाः अर्थाः आभान्ति पुनश्च कुत्रापि वयं वदामः लिखामः इट् एड्स् अ ग्रेट् वेल्यू इफ् यु कोट् वन् वर्ड् वन् फ्रेज् आफ् कालिदास फार् एन् उपमा सो यु केन् यूस् संवेर् आचारलाजैरिव पौरकन्याः इत्यादि बहूनि दट् दोस् फ्रेजस् दे एड् ब्यूटी टु द लेङ्ग्वेज् अतः अध्ययनेन सह प्रतिदिनम् एकवारं पठ्यते चेत् अध्ययनकाले एव कण्ठस्थं भवति पुनः अग्रे उपयोगाय भवति मरुत्सखाभस्य अलङ्कारस्य विषये पुनः पाठयतु इति केनचित् पृष्टं तत्र वयं विल् गो टु दट् स्लैड् द समास वेर् एवर् वी हेव् दट् समास उपमानपूर्वपदकर्मधारयः वा उपमानपूर्वपदबहुव्रीहिः वा यत्र भवति तत्र उपमालङ्कारः अस्ति एव मरुत्सखः इव आभः सो तत्र हू इस् रेस्प्लेण्डेण्ट् लैक् फयर् इत्यर्थः तत्र मरुत्सखः इति उपमानम् सो दिलीप इस् बीङ्ग् कम्पेर्ड् टु मरुत्सख दट् इस् अग्नि अतः मरुत्सखः इति उपमानं तं दिलीपं थ्रू द काण्टेक्स्ट् वी नो दट् इट् इस् दिलीप सः उपमेयः आभ दट् इस् कान्ति वेदर् यु टेक् इट् एज़् बहुव्रीहि आर् कर्मधारय उपमालङ्कारः समानः उभयत्रापि मरुत्सखः अग्निः उपमानं कान्तिः साधारणधर्मः दिलीपः उपमेयम् The word iva is not found in that, okay, marutsakhabham ityatra, ataha luptopama, upama vachakaha shabdaha nasti ityataha, luptopama alankara. Agre, agrima saptahe, वयं श्लोकद्वयं द्रष्टुं प्रयत्नं कुर्मः. ओके, सो टू श्लोकस् वि विल् ट्रै. सो दिस् इस् एक्चुलि द 25th एण्ड् द 26th श्लोकस् इन् द सर्ग. दशमः श्लोकः अधीतः. The whole chunk in between is a detailed description of how Dilipa did the seva, a description of the forest. It's very beautiful. Vastatah bahu samyak santi shlokah madhye. Vanasya varnanam bahu samyak karoti. Vanat pratyagamanam punah gamanam ityadi karoti. Anantaram sapta trigunani, 3 × 7. Ekavimshatihi dinani Dilipah evam व्रतं करोति. तदनन्तरं किं भवति इति श्लोकः एव कोविदपाठ्यक्रमे अस्ति. 25th श्लोकः. इत्थं व्रतं धारयतः प्रजार्थं समं महिष्या महनीयकीर्तेः. सप्तव्यतीयुस्त्रिगुणानि तस्य, दिनानि दीनोद्धरणोचितस्य. ततः 26th श्लोकः. अन्येद्युरात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः. गंगा प्रपातांत विरूढ शष्पम गौरी गुरोर गह्वर माविवेश इति. सो इफ पॉसिबल प्लीज हैव अ लुक बिफोर यू कम टू क्लास. मया उच्यते किंतु पूर्वमेव भवद्भिः प्रयत्नः क्रियते चेत् यू विल फील अ ग्रेटर सेंस ऑफ सैटिस्फैक्शन एंड यू विल आल्सो लर्न अ लॉट. तत्र कोविद पुस्तके विवरणम अस्ति. मल्लिनाथस्य व्याख्यानं स्वयं द्रष्टुं शक्यते. ततः अपि पूर्वसिद्धतां कृत्वा आगच्छन्ति चेत् सम्यक् भवति. ओके, सो इफ पॉसिबल जस्ट गो थ्रू दीस टू वर्सेस वन्स. इदानीं प्रश्नाः सन्ति चेत् पृच्छन्तु. अग्रिमवर्गः जुलै मासस्य पञ्चमदिनाङ्के शुक्रवासरे समासः. आभः इत्युक्ते किं? कान्तियुक्तः, रेस्प्लेंडेंट, शाइनिंग इत्यर्थः. केषुचित् रघुवंशपुस्तकेषु अर्घ्यम् इति अस्ति इति पाठः विद्यते इति केनचित् उच्यते. Actually, in the edition I have, even Mallinatha, it says Archyam. Arghyam ityukte bahumulyam, very mahan ityarthe arghya shabdasya prayogaha syat. Okay, so it is possibly a variant reading. Pathantaram bhavitum arhati arthasya mahan bhedaha na bhavati. Okay, it's similar, something very valuable इत्यर्थः भवेत् तदा. अन्ये केऽपि प्रश्नाः सन्ति वा? अस्तु, अत्र तर्हि समापयामः. वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ. गुरुरेव गतिर्गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे. न गुरोः परमं शिशुरस्मि, गुरोर्मतिरस्ति गुरौ मम पाहि गुरो.